शतमानं भवति शतायः पुरुषश्चतेन्द्रियायश्चेवेन्द्रिये प्रतितिष्ठति सुमङ्गलीरियं वदोर्यमागं समे तपश्यत सोवाग्यमस्त्वे दत्त्वा यातां विपरेतना इष्टकाम्यार्थफलसिद्धिरस्तु।